ॐ श्री वेङ्कटेश श्रीवासो लक्ष्मीपतिरनामयः अमृताशो जगद्वन्द्यो गोविन्दः शाश्वतप्रभुः शेषाद्रिनिलयो देवः केशवो मधुसूदनः अमृतो माधवः कृष्णः श्रीहरिर्ज्ञानपञ्जरः श्रीवत्सवक्षात् सर्वेषु गोपालः पुरुषोत्तमः गोपीश्वरः परं ज्योतिः वैकुण्ठपतिरव्ययः सुधातनुर्यादवेन्द्रो नित्ययौवनरूपवान् चतुर्वेदात्मको विष्णुः अच्युतः पद्मिनीप्रियः धरापतिः सुरपतिः निर्मलो देवपूजितः चतुर्भुजश्चक्रधरः त्रिधामा त्रिगुणाश्रयः निर्विकल्पो निष्कळङ्को निरातङ्को निरञ्जनः निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः गदाधरः शार्ङ्गपाणिः नन्दकेशङ्कदारकः अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः अनेकात्मादीनबन्धुः आर्तलोकाभयप्रदः आकाशराजवरदो योगी हृत्पद्ममन्दिरः दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः त्रिविक्रमः शिंशुमारो जटामकुटशोभितः शङ्खमद्योल्लसन्मञ्जु किङ्किणाढ्यकरण्डकः नीलमेघश्यामतनुः बिल्वपत्रार्चनप्रियः जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः चिन्तितार्थप्रदो जिष्णुर्दाशार्घो दशरूपवान् देवकी नन्दनः शौरिः हयग्रीवो जनार्दनः कन्याश्रवणतारेजः पीताम्बरधरो नगः वनमाली पद्मनाभो मृगयासक्तमानसः अश्वारूढः खड्गधारी धनार्जनसमुत्सुकः घनसारलसन्मध्य कस्तूरितिलकोज्ज्वलः सच्चिदानन्दरूपश्च जगन्मङ्गलदायकः यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः परमार्थप्रदशान्तः श्रीमान् दोर्दण्डविक्रमः परात्परः परब्रह्म श्रीविभुर्जगदीश्वरः एवं श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् त्रिसन्ध्यं यः पठेन्नित्यं सर्वान् कामानवाप्नुयात् श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्।